జపితవ్యం ఇది శుద్ధం రూపం. ఏవం త్వయా న ఇచ్చితవ్యమాసీత్ ఇతి ప్రయోగః క్రియతే. ఇచ్చితవ్యం ఇతి అపశబ్దః, ఏష్టవ్యం ఇతి రూపం ప్రయోక్తవ్యం. ఇచ్ఛార్థకస్య విషధాతోః తవ్యత్ ప్రత్యయే గుణే ఏష్టవ్యం ఇతి రూపం. ఇషుగమీయమాంశ ఇతి సూత్రేణ చకార ఆదేశ ఇచ్చతీతి రూపం. తవ్యత్ ప్రత్యయేతు చకారస్య ప్రసక్తిః నాస్తి. అత్ర పూర్వం ఆహ్వాతవ్యాః ఇత్యత్ర హ్వీ ఇతి ధాతుః స్పర్ధ ఇతి అర్థః. ఆదేశ ఉపదేశే అశితి ఇత్యనేన ఆత్వం భవతి, తః ఆహ్వాతవ్యం రూపం. జప్తవ్యం ఇత్యత్ర అయం జపధాతుః సేట్, అర్ధధాతుకస్య ఇడ్బలాదేహేతి ఇడాగమః జపితవ్యం ఇతి రూపం. భిక్షుకాయ వస్త్రం దదన్ ధనికః సంతుష్టః, దదన్ ఇతి అపశబ్దః దదత్ ఇతి రూపం. ప్రథమ ఏకవచనే పుంసి ఉగిదశామితి సూత్రేణ నమాగమః గచ్చన్ పఠన్ లిఖన్తి రూపాణి. అయం దాధాతుః తృతీయగణీయః, అతః అభ్యస్తాచ్యుతుః ఇతి మమః నిషేధః భవతి, అతః దదత్ ఇత్యేవ రూపం. బాలిక కార్యం కురువంతి సంభాషణం కరోతి. కురువతి ఇది ప్రయోక్తవ్యం, కురువంతి ఇది అపశబ్దః. పఠంతి లిఖంతి ఇత్యాదిషు నుం దృశ్యతే. నుం కదా ఇతి చేత్ అదంతం అంగం చేత్ శత్రుప్రత్యయే స్త్రియా నుం భవతి. అయం కృధాతుః అష్టమగణీయః, తస్య యదా శత్రుప్రత్యయః తత్ అదంతం అంగం న భవతి, అతః కున్నుం న, సః కురువతి ఇత్యేవ రూపం. కార్యం క్రియమాణః సహ వేతనం లభతే ఇతి దోషయుక్తః ప్రయోగః. కార్యం కురువన్ అథవా కురువాణః ఇతి ప్రయోక్తవ్యం. సేవ వందమానః పఠ్యమానః ఇత్యాదీని అన్యాని రూపాణి. కింతు క్రియమాణః ఇతి నాస్తి, కురువన్ కురువాణః ఇతి. ఉష్యమాణం గృహం గమ్యమాన మార్గః ఇతి ఉభౌ అపి ప్రయోగో దుష్టౌ ఏవ. యత్ర ఉష్యతే తత్ గృహం, యేన గమ్యతే సః మార్గః ఇతి వక్తవ్యం. అతః క్రియమాణః ఆపణః ఇతి అశుద్ధం. यस्त्र वस्तूनि क्रियन्ते सः आपणः शय्यमानः प्रकोष्ठः इति अशुद्धम्। यत्र शय्यते सः प्रकोष्ठः गम्यमानं लोकयानम् इति अशुद्धम्। गम्यमानं लोकयानं इति अशुद्धम्। येन जनाः गच्छन्ति तद् लोकयानम्। सुप्यमाना शय्या इति अशुद्धम्। यत्र सुप्यते सा शय्या। लिख्यमानं कागदम् इति अशुद्धम्। यत्र लिख्यते तत् कागदम्। उपविश्यमानः आसन्दः इति अशुद्धम्। यस्मिन् उपविश्यते सः आसन्दः। स्नायमाना नदी इति अशुद्धम्। यत्र स्नायते सा नदी इति शुद्धम्। सः ग्रन्थं पठितः इति दोषयुक्तः प्रयोगः। पठितवान् इति प्रयोक्तव्यम्। ते अथवा तेन ग्रन्थः पठितः इति प्रयोक्तव्यम्। अकर्मकाः भावार्थे तत्प्रत्ययं प्राप्नुवन्ति। पुष्पेण विकसितम् इति उत्थितः उत्थितवान् सः इति अकर्मकाः कर्तृत्वे अप्रत्ययम् आप्नुवन्ति। सः ग्रामं गतः इत्यादयः। अरण्ये व्याघ्राः हरिणान् निश्शङ्कं निहन्ति इति दोषयुक्तः प्रयोगः। निघ्नन्ति इति समीचीनं रूपम्। निहन्ति इति एकवचनान्तम्, अपेक्षा तु बहुवचनान्तस्य। निहन्ति इति एकवचनान्तम् इति उक्तम्। अत्र अपेक्षा तु बहुवचनान्तरूपस्य, अतः हन्ति इत्यत्र नकारः यः श्रूयते सः धातोः ऋतु झिप्रत्ययसम्बद्धः। इदानीं किं करणीयमिति योचयन् आसीत् नागेशः इति अस्ति। अत्र योचयन् इति अशुद्धम्, आलोचयन् आलोचमानः, चिन्तयन् इति वा प्रयोक्तव्यम्। भवन्तः पुनः अपि मम गृहम् आगमिष्यन्तु इति दोषयुक्तः प्रयोगः। आगच्छन्तु इत्येव भाव्यम्। लोट्लकारस्य कालवाचकत्वं नास्ति। भविष्यतः प्रतीतिः क्वचित् भवितुम् अर्हति, किन्तु कालवाचकत्वं तथा नास्ति, अतः आगच्छन्तु इत्येव प्रयोक्तव्यम्। आगमिष्यन्तु इति अपशब्दः। परश्वः प्रातः एव अहम् आगच्छामि, अयं प्रयोगः दुष्टः। परश्वः आगमिष्यामि इति प्रयोक्तव्यम्। प्रादेशिकभाषा प्रभावतः प्रायः दाक्षिणात्याः झटि प्रयोक्तव्ये लटं प्रयुञ्जते, अतः संस्कृते तु वर्तमाने लट् भविष्यति लृट् इति विवेकः। यदि भवान् वदति स्म तर्हि अहं करोमि स्म, अयं प्रायः प्रादेशिकभाषा प्रभावकारणतः प्रयुज्यमानम् एतत् वाक्यम्। एषा वाक्यरचना दोषयुक्ता। यदि भवान् अवदिष्यत् तर्हि अहम् अकरिष्यम्, यदि भवान् वदेत् तर्हि कुर्याम् इति वा प्रयोक्तव्यम्। अत्र लट् लकारेण सह स्म प्रयोगः कृतः। अत्र तादृश अर्थः अन्वितः अभिप्रेतः वा न भवति। अतः यदि भवान् अवदिष्यत् तर्हि अहम् अकरिष्यम्, यदि भवान् वदेत् तर्हि अहम् कुर्याम् इति विवक्षितः अर्थः वाक्यमपि तादृशमेव प्रयोक्तव्यम्। व्याघ्रं दृष्ट्वा सः कम्पितुम् आरब्धवान् इति दोषयुक्तः प्रयोगः। कम्पितः जातः इति प्रयोगः। व्याघ्रं दृष्टवती तस्मिन् कम्पनम् उत्पन्नम् इति भङ्ग्यन्तरेण प्रयोगः अपि भवितुम् अर्हति। सः किमपि वक्तुं प्रस्थितः इति दोषयुक्तः प्रयोगः। वक्तुम् उद्युक्तः इति प्रयोक्तव्यम्। अत्र प्रस्थानस्य न कोऽपि अवसरः। वक्ता उद्युक्तः भवति, अतः वक्तुम् उद्युक्तः इति। प्रादेशिकभाषाप्रभावतः एव एतादृशः प्रयोगः भवति। रामः रावणम् असंहरत् इति दोषयुक्तः प्रयोगः। समाहरत् इति प्रयोक्तव्यम्। संहरति इत्यत्र सम इति उपसर्गः हरति इति लडन्तम् भूतकाले लङ्लकारे अडागमः भवति तदा सम अहरत् समहरत् इति रूपम् एवमुक्त्वा देवः अन्तर्धानः जातः इति दोषयुक्तः प्रयोगः अन्तर्हितः जातः अन्तर्धानम् गतः इति प्रयोक्तव्यम् सः राजनीतिक्षेत्रे पदं निधत्तवान् इति दोषयुक्तः प्रयोगः निहितवान् इति प्रयोक्तव्यम् धायिधातोः तवत् प्रत्यये दधातेर्हिः इति हि भवति तदा निहितवान् इति रूपम् धत्तवान् इति रूपं तु असाधु एव सचिवः योजनां क्रियान्वेतुं प्रयत्नं कृतवान् इति दोषयुक्तः प्रयोगः क्रियान्वितां कर्तुम् इति व्यवहारपथम् आनेतुम् इति युक्तः प्रयोगः रामः राक्षससंहाराय ब्रह्मास्त्रं त्यक्तवान् इति दोषयुक्तः प्रयोगः ब्रह्मास्त्रं प्रयुक्तवान् इति शुद्धः प्रयोगः योद्धा धनुः गृहीत्वा बाणं प्रवर्तयति अयं बाणप्रयोगः त्यागः नाम अन्यः अर्जुनः धनुर्बाणादीन् भूमौ स्थापयित्वा उक्तवान् अहं त्यजामि इति सः त्यागः न योक्षे इत्यादि अतः बाणं त्यक्तवान् इति प्रयोगः न उचितः बाणं प्रयुक्तवान् इति बाणं मुञ्चति इति बहुधा प्रयोगः श्रूयते सः गोष्ठ्यां स्वस्य प्रबन्धं मण्डितवान् इति दोषयुक्तः प्रयोगः अत्र दोषः अस्ति कश्चन उपस्थापितवान् इति भवेत् उपस्थापितवान् इति शुद्धः प्रयोगः मण्डनं नाम अलङ्कारः प्रबन्धस्य मण्डनं न उपस्थापनम् अतः उपस्थापितवान् इति प्रयोगः इतोपि किञ्चित् अन्नम् इति अन्यद् उदाहरणं पश्यामः भवता एतद्विषये चिन्ता विहितव्या नास्ति इति दोषयुक्तः प्रयोगः विधातव्या इति शुद्धः प्रयोगः दधातेः हिः इति आदेशः तादोक् इति प्रत्यये परे एव तव्यप्रत्ययः यद्यपि तादिः किन्तु कीर्तन अतः हि इत्यस्य प्रसक्तिः अत्र नास्ति विधातव्य इत्येव रूपम् बालकः दशवादने निद्रितवान् अयमस्माभिः आधिक्येन क्रियमाणः दोषयुक्तः प्रयोगः निद्राणवान् इति प्रयोक्तव्यम् अथवा निद्रितः इति वा अथवा सुप्तः इति द्राधातुः नि इति उपसर्गयुक्तः संयोगादेरातु इति सूत्रेण नकारं प्राप्नोति निद्राणवान् इति रूपम् निद्रितः इत्यत्र तारकादिभ्यः इथच इति निद्रायुक्तः इति तात्पर्यम् निद्रितवान् इति प्रयोगः तु भ्रान्त्या एव अद्यत्वे प्राध्यापकाः परीक्षायाम् उत्तराणि लेखापयन्ति प्रायः इदं हिन्दीभाषा प्रभावेण प्रयुज्यमानः लेखापयन्ति इति दोषयुक्तः प्रयोगः लेखयन्ति इति प्रयोक्तव्यम्। लेखधातोः निचि लेखयति इति रूपम्, अतः लेखापयति इति रूपम् न भवति। लेखयति इत्येव प्रयोगः शोभते। एतावत् पर्यन्तं वयं बहूनि क्रियापदानि दृष्टवन्तः। पूर्वतनकक्षाः अत्र प्राप्तुं शक्याः इति भवन्तः जानन्त्येव। यदि केऽपि सन्देहाः सन्ति चेत् अत्र भवन्तः पत्रद्वारा प्रष्टुम् अर्हन्ति। अद्यतनकक्षाम् अत्र समापयामः। सर्वेभ्यः धन्यवादाः। शुभरात्रिः।